ओम नमो भगवते वासुदेवाय। अथैकादशोऽध्यायः। श्रीशुक उवाच, भगवानात्मनात्मानं राम उत्तमकल्पकैः सर्वदेवमयं देवमीजाचार्यवान्मखैः। होत्रे ददा दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः, अध्वर्यवे प्रतीचीं च उदीचीं सामगायसः। आचार्याय ददौ शेषां यावती भूस्तदन्तरा, मन्यमानैदं कृत्स्नं ब्राह्मणोऽर्हति निःस्पृहः। इत्ययं तदलङ्कार वासोऽभ्यामवशेषितः, तथा राज्ञपि वैदेही सौमङ्गल्यावशेषिता। ते तु ब्रह्मण्यदेवस्य वात्सल्यं वीक्ष्य संस्तुतम्, प्रीता क्लिन्नधियस्तस्मै प्रत्यर्पेदं बभाषिरे। अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर, यन्नोऽन्तर्हृदयं विश्य तमोहंसि स्वरोचिषा। नमो ब्रह्मण्यदेवाय रामाय कुण्ठमेधसे, उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्रये। कदाचिल्लोकजिज्ञासुर्गूढो रात्र्यामलक्षितः, चरन् वाचो शृणोत् रामो भार्यामुद्दिश्य कस्यचित्। नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगां, स्त्रीलोभी बिभ्रियात् सीतां रामो नाहं भजे पुनः। इति लोकाद् बहुमुखाद् दुराराध्याद् संवितः, पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम्। अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ, कुशोलव इति ख्यातौ तयोश्चक्रे क्रियामुनिः। अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ, तक्षः पुष्कल इत्यास्तां भरतस्य महीपते। सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः, गन्धर्वान् कोटिशो जज्ञे भरतो विजये दिशाम्। तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत्, शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसं हत्वा मधुवने चक्रे मथुरां नाम वैपुरीं। मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता, ध्यायन्ति रामचरणौ विवरं प्रविवेशः। तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः, स्मरंस्तस्या गुणांस्तान्नाशक्नोद् रोद्धुमीश्वरः। स्त्रीपुं प्रसङ्ग एतादृक् सर्वत्रत्रासमावहः, अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः। तत ऊर्ध्वं ब्रह्मचर्यं धारयन्न जुहोत्प्रभुः, त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम्। स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः, स्वपादपल्लवं राम आत्मज्योतिरगात् ततः। नेदं यशो रघुपते सुरयाच्ययात्, लीलातनोरधिकसाम्य विमुक्तधाम्नः। रक्षो वधो जलधिबन्धनमस्त्रपूगैः, किं तस्य शत्रुहनने कपयः सहायाः। यस्यामलम् नृपसदस्सु यशोधुनापि गायन्त्यघग्नमृषयोदिगिभेन्द्रपट्टम्। तं नाकपालवसुपालकिरीटजुष्टपादाम्बुजं रघुपतिं शरणं प्रपद्ये। स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा, कोसलास्ते ययोः स्थानं यत्र गच्छन्ति योगिनः। पुरुषो रामचरितं श्रवणैरुपधारयन् आनृशंस्य परो राजन् कर्मबन्धैर्विमुच्यते। राजोवाच, कथं स भगवान् रामो भ्रातॄन् वा स्वयमात्मनः, तस्मिन् वा तेन्ववर्तन्त प्रजाः पौराश्च ईश्वरे। श्रीशुक उवाच, अथा दिशद्दिग्विजये भ्रातॄंस्त्रिभुवनेश्वरः, आत्मानं दर्शयन् स्वानां पुरीमैक्षतसानुगः। आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः, स्वामिनं प्राप्तमालोक्य मत्तां वासुतरामिव। प्रासादगोपुरसभा चैत्यदेवगृहादिषु विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम्। पूगैः सवृन्तैरम्भाभिः पट्टिकाभिः सुवाससाम्, आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम्। तमुपेयुस्तत्र तत्र पौरा अर्हणपाणयः, आशिषो युयुजुर्देव पाहि मां प्राक्त्वयोद्धृताम्। ततः प्रजावीक्षपतिं चिरागतं दिदृक्षयोत्सृष्टगृहास्त्रियो नराः। आरुह्य हर्म्याण्यरविन्दलोचनमतृप्तनेत्रा कुसुमैरवाकिरन्। अथ प्रविष्टः स्वगृहं दुष्टं स्वयि पूर्वराजभिः, अनन्ताखिलकोशाढ्यमनर्घ्योरुपरिच्छदम्। विद्रुमोदुम्बरद्वारैर्वैदुर्यस्तम्भपङ्क्तिभिः स्थलैर्मारकतैः स्वच्छैर्भातस्फटिकभित्तिभिः चित्रस्रग्भिपट्टिकाभिर्वासो मणिगणांशुकैः मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः धूपदीपैः सुरभिभिर्मण्डितम् पुष्पमण्डनैः स्त्रीपुम्भिः सुरसङ्काशैर्जुष्टम् भूषणभूषणैः तस्मिन् स भगवान् रामः स्निग्धया प्रियजेष्टया रेमे स्वारामधीराणाम् ऋषभः सीतया किल बुभुजे च यथा कालम् कामान् धर्ममपीडयन् वर्षपूगान् बहून्द्रीणामभिध्याताङ्घ्रिपल्लवः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे श्रीरामोपाख्याने एकादशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।